नमस्सर्वेभ्यः अद्य कृदन्तवर्गे ऊनविंशः पाठः सेप्टेम्बर् मासस्य द्वितीयः दिनाङ्कः अद्य वयं क्त्वा प्रत्ययस्य सेट् धातूनां रूपाणि जानीमः योऽन्तः प्रविश्य ममवाचमिमां प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना अन्यांश्चहस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमम् शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो सप्ताहत्रयस्य व्यवधानं वर्गयोः मध्ये ऐम् सारी फार् द लाङ्ग् ब्रेक् वि वर् वर्किङ्ग् फ्रम् व्योमा लेब्स् वि आर् वर्किङ्ग् आन् अ न्यू प्राडक्ट् विच् टुक् अवे मोस्ट् आफ् द टैम् फार् द पास्ट् कपल् आफ् वीक्स् सो ऐ हेव् नाट् आल्सो बीन् एबल् टु अप्लोड् द video and other materials for last class, which I'll be doing after today's class. So what we were doing, we have been doing a product called Saptaha Stotra Sangraha. So it's a collection of audio and book, audio accompanied by the book for daily parayanam, for chanting, easy shlokas for chanting. Most of the shlokas are anushtup for each day of the week. And the shlokas, stotras are organized by, deities for each day. Like the Monday has the stotras on Shiva and Tuesday has those on Ganesha and Subramanya and so on. So around 360 shlokas for the week. Okay, so the book has both English and Tamil meaning, and of course the Mula and Devanagari, Roman and Tamil. So the book will be released next week, Monday, and after that you will be able to have it. So please, you can have a look at it, buy it and use it. So we hope it will be useful. And one more thing for those who are in Chennai. So next weekend, which is the 9th of September, we have an event called Sneha Milana in Chennai. So it is just to meet our well-wishers and supporters who are in Chennai, tell you what we have been doing and seek your support in our activities. So those who are in Chennai, please do make it. We'll send the details through email. So it's on 9th September evening, next Saturday evening. From 4:30 to around 6:30 or 7. Just a couple of hours over the weekend evening in Mandaveli, okay, in Chennai. So we'll send the details through email. Whoever is in Chennai, please do make it for the event. Okay. So we'll start with quickly recapping what we studied about the Ktva Pratyaya. Ktva iti Pratyaya. प्रयोगे त्वा इति रूपं श्रूयते अयं भावार्थकः प्रत्ययः अर्थात् क्रियां बोधयति तत्रापि कीदृशी क्रिया इति चेत् समानकर्तृकयोः पूर्वकाले यदा एकेन कर्तृणा क्रियाद्वयं क्रियते एकां क्रियां समाप्य अनन्तरम् अपरा क्रिया क्रियते तदा पूर्वकालिकक्रियायाः क्त्वा प्रत्ययः क्रियते सर्वेभ्यः धातुभ्यः अयं प्रत्ययः भवति इट् इस् वन् आफ् द मोस्ट् कामन् प्रत्ययस् विच् इस् यूस्ड् इन् संस्कृत क्त्वा प्रत्ययान्तः शब्दः अव्ययं भवति एकमेव रूपं सर्वेषु लिङ्गेषु सर्वासु विभक्तिषु सर्वेषु वचनेषु च एकमेव रूपं भवति अव्ययं भवति इतिक्त्वा प्रत्ययस्य विषये सामान्याः अंशाः इति पुनरावर्तनार्थम् एकम् अभ्यासं कुर्मः. क्रियाद्वयं विद्यते, तत्र पूर्वतनक्रियायाः क्त्वान्तम् उपयुज्य क्रियाद्वयं योजनीयम्. खाद गच्छ इत्यस्ति. ये वक्तुमिच्छन्ति कृपया हस्तम् उत्तोलयन्तु. नन्दकुमार् महोदय
नमस्ते. सुप्रभातम्.
सुप्रभातं, वदतु.
खादित्वा
खादित्वा
गच्छति.
गच्छ, खादित्वा गच्छ. सो ईट् एण्ड् देन् गो. सो देर् आर् टु एक्शन्स्, ईटिङ्ग् एण्ड् गोयिङ्ग्. सो ईटिङ्ग् इस् द अर्लियर् क्रिया, विच् इस् वै वी हेव् द क्त्वा आन् इट्. खादित्वा गच्छ.
गत्वा पश्य.
गत्वा पश्य. गच्छ पश्य. सो गत्वा पश्य. धन्यवादाः. भास्करन् महोदय.
दृष्ट्वा लिख.
लिख, दृष्ट्वा लिख. पश्य लिख इत्यस्ति. पश्य इत्यस्य धातुः दृश्य. दृष्ट्वा लिख.
लिखित्वा पठ.
लिखित्वा पठ. सम्यक्. पद्मनाभन् अय्यर्.
पठित्वा चिन्तय.
पठित्वा चिन्तय.
चिन्तयित्वा वद.
चिन्तयित्वा वद. सम्यक्, धन्यवादाः. सो खादित्वा गत्वा दृष्ट्वा लिखित्वा पठित्वा चिन्तयित्वा इत्येतानि क्त्वान्तरूपाणि पूर्वकालिकक्रियां बोधयन्ति. ओके, सो एकं सुभाषितं पश्यामः. अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुवि, परोपकारे निरताः कथं मेघा न सज्जनाः. मेघाः, क्लौड्स्, किं कुर्वन्ति? अब्धेः, अब्धेः समुद्रस्य क्षारं जलं. क्षारं नाम लवणयुक्तम् इत्यर्थः. सो द साल्टी वाटर्स्. पीत्वा, सो ड्रिङ्किङ्ग् द साल्टी water of the oceans. Varshanti madhuram bhuvi, they give rains which are sweet. I mean the rains having sweet water. So abdhehe ksharam jalam pitva madhuram varshanti. So the intake is that of salty or not good water, whereas the output is sweet. Evam paropakare nirataha, सर्वदा परेषाम् उपकारं कुर्वाणाः, अर्थात् दोषं गृहीत्वापि गुणमेव प्रयच्छन्ति इत्यर्थः. कथं मेघाः न सज्जनाः, सो मेघाः अपि सज्जनाः एव. इत्युक्ते सज्जनाः किं कुर्वन्ति? यद्यपि परैः हिंसा क्रियते, पीडादिकं क्रियते, तत्सर्वमपि सोढ्वा उपकारम् एव कुर्वन्ति. लोकानां यद्हितं तदेव कुर्वन्ति इत्यर्थः. ओके, सो सच् वर्सेस् आर् काल्ड् अन्योक्ति. ओके, सो हियर् द इण्टेण्ट् इस् नाट् टु प्रेस् द क्लौड्, इट् इस् एक्चुली टु टेल् हौ द सज्जनस् बिहेव्. ओके, सो इट् इस् डन् इन् द फार्म् आफ् द प्रेसिङ्ग् द क्लौड्. अब्धेः क्षारं जलं पीत्वा. पीत्वा इति क्त्वान्तम्. आदौ ते जलं स्वीकुर्वन्ति, अनन्तरमेव किल उत्सृजन्ति. अतः अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुवि. सो पीत्वा अनन्तरं वर्षन्ति इति पूर्वकालिकक्रियायाः क्त्वा. समानः प्रयोगः कालिदासेन क्रियते. सदृशः, सहस्रगुणम् उत्सृष्टुम् आदत्तेहि रसं रविः. रविः नाम सूर्यः रसम् अत्र जलम् इत्येवार्थः आदत्ते स्वीकरोति किमर्थं सहस्रगुणम् उत्स्रष्टुम् सो टु रिलीज इट् बैक् अ थौसण्ड् टैम्स् इत्यर्थः सो देर् यू केन् सी दट् इट् इस् तुमुन् बिकास् इट् इस् द उद्देश्य सो ही इस् नाट् टाकिङ्ग् दट् ही टेक्स् एण्ड् देन् गिव्स् इट् इस् नाट् द पूर्वकाल इट् इस् द उद्देश्य द रीजन् फार् टेकिङ्ग् इट् सेल्फ् इस् गिविङ्ग् ओके सो सिमिलर् क्रिया बट् वी हेव् क्त्वा इन् वन् केस् which is for the earlier kriya there utsrashtum to release so for the later kriya we have the tumun so that is the difference between kva and tumun astu pitva pa iti dhatuh pibati iti tingantam pitva iti kvantam so anit dhatunam kva pratyayantani rupani katham bhavanti iti gatavarge drishtavantah सो पुनःस्मरणार्थं पश्यामः क्त्वा इति कित् प्रत्ययः अर्थात् ककारः इत्संज्ञां प्राप्नोति अतः गुणः न भवति सो द जनरल् रूल् इस् देर् इस् नो गुण केषाम् इगन्तानां येषाम् अन्ते इ उ ऋ इत्येते वर्णाः सन्ति अथवा उपधायां द पेनल्टिमेट् लेटर् द लास्ट् बट् वन् लेटर् इस् ह्रस्वः इकारः उकारः ऋकारो वा अस्ति तेषां गुणः न भवति जि जित्वा क्री क्रीत्वा श्रु श्रुत्वा सो द इकार उकार और् कृ कृत्वा इफ् यु रिमेम्बर् द अदर् फार्म्स् लैक् ल्युट् और् अनियर् सो वि हेड् जयनं जयनीयम् और् इवन् तुमुन् जेतुम् क्रेतुं श्रोतुं कर्तुं सो सर्वत्र गुणः भवति सो द ए ओ एण्ड् अर् इति गुणः श्रूयते किन्तु क्त्वा प्रत्यये परे गुणः न भवति सो वी हेव् जित्वा क्रीत्वा श्रुत्वा कृत्वा एवम् उपधायां यदा इकारः उकारो वा अस्ति क्षिप् क्षिप्त्वा छिद् छित्त्वा तुद् तुत्वा दृश् दृष्ट्वा अत्रापि इकारः उकारः ऋकारः तथैव भवति गुणः नास्ति कित्त्वात् गुणनिषेधः इति प्रथमः अंशः अनिट् धातुषु स्मर्तव्यः पुनश्च हल् सन्धिः भवति यथा तुमुन् प्रत्यये यथा तव्यप्रत्यये अत्रापि तकारः आदौ अस्ति अतः हल् सन्धिः भवति चवर्गस्य कवर्गः पच् पक्त्वा त्यज् त्यक्त्वा लभ् लब्ध्वा यदि महाप्राणः अस्ति तर्हि अल्पप्राणः तुमुनः महाप्राणः सो दत्त आफ् सोरि दत्ता आफ् क्त्वा बिकम्स् ध एण्ड् अर्लियर् लेटर् बिकम्स् अ महाप्राण अल्पप्राण सो यु हेव् लभ् लब्ध्वा रुध् रुध्वा अद् अत्वा सो दकारस्य स्थाने तकारः भवति भिद् भित्त्वा दह दग्ध्वा दुह् दुग्ध्वा रुह् रूढ्वा लिह् लीढ्वा विश् विष्ट्वा सृज् सृष्ट्वा इत्येवं सन्धिः भवति सो द सन्धि विल् बि सिमिलर् टु दट् आफ् तुमुन् आर् तव्य सो यु हेड् पक्तुं त्यक्तुं लब्धुं रोद्धु अत्तुं भेत्तुं दग्धुं दोग्धुं रोढुं लेढुं वेष्टुं स्रष्टुं सो रिमूव् प्रिवेण्ट् द गुण बट् डू द सन्धि ओके सो दट् इस् द कामन् प्रोसीजर् फार् क्त्वा आकारान्ताः अथवा एजन्ताः धातवः तेषां सामान्यतः त्वा इत्यस्य योजनं भवति ज्ञा ज्ञात्वा घ्रा घ्रात्वा पा पात्वा पारक्षणे इति धातुः सो तस्य पात्वा रक्षित्वा इत्यर्थः एवं त्रयी भवति चेत् त्रात्वा ध्यै ध्यात्वा इत्येवं भवन्ति म्लै म्लात्वा किन्तु एतेषु विशेषरूपाणि सन्ति स्मर्तव्यानि दा दत्त्वा न तु दात्त्वा सो दा इत्यस्य दत्त्वा धा इत्यस्य हित्वा पा इत्यस्य पीत्वा सो पा पाने पिबति इति यः धातुः तस्य पीत्वा इति रूपं भवति रक्षणे यः पाति इति धातुः तस्य पात्वा इति भवति गै गा गीत्वा सो गायति गीत्वा हा जहाति त्यजति इत्यर्थः तस्य हित्वा इति भवति स्था स्थित्वा मा मित्वा सः केषाञ्चन धातूनाम् इकारः भवति केषाञ्चन ईकारः भवति केषाञ्चन विशेषः भवति स्मर्तव्यम् यत्र अन्ते अन्त्यात् पूर्वं वा अनुनासिकवर्णः अस्ति अनुनासिकस्य लोपः भवति सो गम् मकारस्य लोपः यः गत्वा गत्वा नम् नत्वा यम् यत्वा मन् मत्वा सो हन् हत्वा सो अन्ते मकारः नकारो वा अस्ति चेत् लोपः भवति एवं मध्ये अनुस्वारः स एव अनुनासिकः यत्र दृश्यते तस्यापि लोपः भवति दंश विकम्स् दष्ट्वा बन्ध विकम्स् बद्ध्वा सो द न गोज़ अवे सो यः बध् त्वा विच् विकम्स् बद्ध्वा अनन्तरम् अन्यः एकः अंशः एतत् सर्वं पूर्ववर्गे कृतं वी हव् स्टडीड् आल् दीस् इन् द प्रीवियस् क्लास् सो इफ् यु वाण्ट् इट् स्लोवर् ऐ विल् अप्लोड् द प्रीवियस् क्लास् एट् द एण्ड् आफ् दिस् वीक् ऐ मीन् बै मण्डे आर् ट्यूस्डे सो यु केन् गो थ्रू देम् ऐ एम् जस्ट् रिपीटिङ्ग् देम् सो देट् वी रिमेम्बर् वाट् वी डिड् लास्ट् टैम् सो केषाञ्चन धातूनां सम्प्रसारणं भवति सम्प्रसारणम् इति यण् सन्धेः विपरीतं कार्यं सो इट् इस् द रिवर्स् आफ् यण् यण् सन्धौ इकारस्य यकारः उकारस्य वकारः ऋकारस्य रेफः इत्येवं यण् सन्धिः भवति यत्र तु यकारस्य स्थाने इकारः वकारस्य उकारः रेफस्य ऋकारः क्रियते तत् सम्प्रसारणम् इत्युच्यते क्त्वा प्रत्यये परे सम्प्रसारणं भवति विशिष्टधातूनामेव भवति सो सम्प्रसारण विल् नाट् अप्लै फार् आल् धातु सो ओन्ली फार् स्पेसिफिक् धातु सो वच् वकारस्य उकारः सो यु हाव् उक्त्वा वप् उप्त्वा स्वप् सुप्त्वा वे यु हाव् वे विच् बिकम्स् वा सो तत्र उत्त्वा वः ऊढ्वा ह्वे हूत्वा वस् उषित्वा वद् उदित्वा सो एव्रिवेर् यु केन् सी दट् द व इन्स्टेड् आफ् व वी हेव् द उकार ओके सो दिस् इस् सम्प्रसारण यज् इष्ट्वा सो यकारः अस्ति यकारस्य इकारः इष्ट्वा प्रच्छ पृष्ट्वा सो रेफस्य स्थाने ऋकारः एवं ग्रह गृहीत्वा सो ग्रहधातोः विषये अयं सन्देहः सामान्यतः भवति कुत्र ऋकारः भवति कुत्र रेफः सो यु हाव् ग्रहीतुं ग्रहणीयम् इत्यादि अत्र तु गृहीत्वा सो यु हाव् सम्प्रसारण इष्ट प्रत्यय इस् कित् ओके सो दट् इस् द निमित्त फार् सम्प्रसारण दट् इस् वै इफ् यु हाव् द क्त प्रत्यय सो तत्रापि यु विल् हाव् गृहीतः गृहीत्वा सो द प्रत्यय विच् हेस् दट् ककार एस् इत् यु विल् हाव् द ऋकार सो अदर्वैस् फार् द अदर् कृत् प्रत्ययस् यु विल् हाव् द ग्रह ओके सो ग्रहणं ग्रहणीयं ग्राहकः ग्रहीतुं grahitavyam so everywhere you don't have the rakara so the rakara comes into place because of the samprasarana which happens because of the kit so for kit pratyaya any pratyaya which has kakara as it you will have the samprasarana okay अस्तु इदानीं द्वितीयः अभ्यासः क्त्वान्त शब्दान् उपयुज्य वाक्यानि योजयत सोपान्तः बालं पृच्छति मार्गं जानाति सो ट्रावेलर् पान्थः इत्यस्य यः सञ्चारं करोति सः इत्यर्थः सः बालं पृच्छति मार्गं जानाति सो हि आस्क्स् अ बाय् एण्ड् हि नोस् द वे रामप्रिया वदति वा रामप्रिया भगिनी न श्रूयते ऐ केन् हियर् ओन्ली सम् नाय्स् सो मे बी सम् प्राब्लम् वित् द मैक्रोफोन् ओके महादेवन् महोदय
पान्थः बालं पृच्छति मार्गं जानाति पान्थः बालं पृष्ट्वा मार्गं जानाति
बालं पृष्ट्वा मार्गं जानाति सो प्रच्छ इति धातुः तस्य पृष्ट्वा इति भवति
शुनकः रज्जुं दशति आत्मानं मोचयति शुनकः रज्जुं दष्ट्वा आत्मानं मोचयति
दष्ट्वा सो बैटिङ्ग् इट्स् रोप् द डाग् रिलीजस् इट्सेल्फ् इत्यर्थः रज्जुं दष्ट्वा आत्मानं मोचयति धन्यवादाः मैथिली भगिनी
सः विदेशे स्थित्वा कार्यं करोति
विदेशे स्थित्वा स्था इति धातुः स्थित्वा इति रूपं सः विदेशे स्थित्वा कार्यं करोति सो हि स्टेस् इन् अ फारिन् कण्ट्री एण्ड् वर्क्स्
शिशुः क्षीरं पीत्वा स्वपिति
क्षीरं पीत्वा स्वपिति सो द चैल्ड् ड्रिङ्क्स् मिल्क् एण्ड् स्लीप्स् सो पीत्वा पा धातुः पीत्वा इति रूपं धन्यवादः वेङ्कटेश्वरन् महोदय
बालः शिलां क्षिपति फलं पातयति बालः
क्षिप्त्वा
शिलां क्षिप्त्वा फलं पातयति
बालः शिलां क्षिप्त्वा फलं पातयति सो हि थ्रोस् अ स्टोन् एण्ड् मेक्स् द फ्रूट् फाल् ओके
रामः राज्यं जहाति वनं याति रामः राज्यं जहाति
हा इति धातुः हित्वा इति रूपं
रामः राज्यं हित्वा वनं पाति
वनं याति याति गच्छति इत्यर्थः सो राज्यं हित्वा त्यक्त्वा इत्यर्थः सो गिविङ्ग् अप् द किङ्ग्डम् हि गोस् टु द फारेस्ट् धन्यवादाः सो हा हित्वा क्षिप् क्षिप्त्वा इत्येवम् अनित् धातूनां रूपाणि भवन्ति सो इतोपि एकः अभ्यासः सो देर् इस् अ सीरीस् आफ् एक्षन्स् सो एव्रिथिङ्ग् हेस् टु बि जायिन्ड् यूसिङ्ग् क्त्वा ओके सो क्त्वा इन् ईच् सेण्टेन्स् टिल् द एण्ड् श्रीराम
कृष्णः भूतनां हित्वा
हतवान्
हत्वा
हत्वा
नवनीतं हृत्वा गोवर्धनम् उढ्वा कंसं
जित्वा
उग्रसेनाय राज्यं दत्त्वा रुक्मिणीं परिणीतवान्
सम्यक् धन्यवादाः. सो हन् हत्वा हृ हृत्वा वह धातुः वहति ऊढ्वा सो बेरिङ्ग् इत्यर्थः जयति जित्वा ददाति दत्त्वा सो यु हाव् द परिणीतवान् सो इफ् यु केन् नोटिस् हियर् द फार्म्स् आफ् द क्तवतु प्रत्ययान्त and those of dattva are similar. So you have hata hatva, hrita hritva, udha udhva. So instead of the ta, if you have tva, most of the times the form will be similar. Jita jitva, dattva. So nita will be nitva, so on. Okay. So the reason is they have both that kakara. So kta, ktavatu, ktva. All of them have that kakara. So, because of that, the forms will be similar. So, that is one of the clues. I mean, many people keep wondering why those extra letters. They have also asked in this. Okay. So, as you can see, if you just hear the forms like tva and tavatu or ta, there does not seem to be much similar. Okay. But they are all brought together because of this kakara. So, they belong to one class. So, these marker letters, even though they are not directly heard in the form, they do play a very important part in deciding what is the form. Okay, so that is one of the purposes. So as you can see, the ktvanta will resemble the ktavatu and kta more than tumun or tavya. Okay, so even though all of them start with takara, you have tum, tavya, tva, ta, tavatu, etc. So all of them start with ta, but there are two different groups. Tavya, tumun, they belong to a different group, the trich. Okay, so all of them will have similar forms, whereas the ktva, ktavatu, kta, they will have similar forms because of that common factor, what we call the anubandha or the it letter. Okay. So, it is important to know, it is easier, when you know that, it is easier to know the connection and see what forms are similar. So, if you know one form, you will be able to guess the other form. Okay. So, agre gachamaha, kta pratyasya, ktavatu pratyasya adhyanam, agre karishyamaha. So, idhanim, set dhatunam ktvantarupani katham bhavanti, iti gyatavyam. Okay. सो सामान्याः ये सेट् धातवः सो एतत्तु स्मरन्ति इति भावयामि धातुषु सेट् वेट् अनिट् इति वर्गत्रयं भवति. ओके, सो देर् आर् सम् धातुस् विच् विल् कम्पल्सरीलि गेट् इट् दे आर् काल्ड् एस् सेट्. देर् आर् सम् विच् विल् आप्शनली गेट् इट् विच् आर् काल्ड् एस् वेट्. And there are some which do not get it, which are called as anit. Okay, so that is the general classification of dhatus. So how do we know whether a dhatu is set, weight or anit? So by the using the dhatu patha. Okay, so the dhatu patha is the only reference for determining whether which of these classes a dhatu belongs to. And that is again a general case. Okay, so again there are differences for tva, as we'll see. But normally, यदि सामान्यतः यदि धातुः सेट् भवति तर्हि इकारः मध्ये भवति तावदेव विशेषः न भवति सामान्यतः. सो पठ पठित्वा सो इकारः अस्ति अत एव धातुः सेट् इत्युच्यते. सो वन्द वन्दित्वा अर्च अर्चित्वा खाद खादित्वा क्रीड क्रीडित्वा जीव ஜீவித்வா, பாது பாதித்வா, தாவ் தாவித்வா, நிந்து நிந்தித்வா, ரக்ஷ ரக்ஷித்வா. சோ ஏவம் இடாகமஹ பவதி. சோ சாமான்யதஹ அன்யஹ விசேஷஹ நாஸ்தி. சோ ஃபார் எனி தாதுஸ் விச் டு நாட் குவாலிஃபை ஃபார் குண அண்ட் மோஸ்ட்லி ஹலந்தஸ், யூ ஹாவ் திஸ் யூ ஜஸ்ட் ஜாயின் தத்வா வித் அன் இகார இன் பிட்வீன். உதாரணாணி பஷ்யாமஹ. அர்ச்சித்வா கந்தமால்யாத்யைஹி பயசா ஸ்நபயேத் விபும். Some procedure of worshipping somebody. Gandhamalyadyaihi architva, pujaitva ityartha. So worshipping by giving gandha, that is the fragrance or the this one, malya, flowers or flower garland, etc. Payasa snapayet. So one should do abhisheka with payas, which is milk ityartha. So அர்ச்சித்வா, சோ ஆதௌ அர்ச்சித்வா அனந்தரம் ஸ்நபயேத் இத்யர்த்தஹ. க்த்வாந்தம் அர்ச்சதாதோஹ. பதித்வா தண்டவத் பூமௌ க்ருதாஞ்சலி புடோ த்விஜஹ அஸ்தௌஷி ஜானகிநாதம் ஸ்தோத்ரைஹி ஸ்ருதி மனோஹரைஹி. சோ தண்டவத் பூமௌ பதித்வா, சோ ஃபாலிங் ஆன் த கிரவுண்ட் லைக் அ ஸ்டிக், தண்டவத் தட் இஸ் வாட் வி கால் த தண்ட பிரணாம or the sashtanga pranama, falling straight on the floor. So dandavatu bhumau patitva krutanjali putaha. So anjali is joining the hands together, so folding his hands. Saha dvijaha janaki natham astaushit. So janaki nathah shri ramaha tam astaushit stutavan stotraihi shruti manoharaihi. சோ சுந்தரைஹி ஸ்தோத்ரைஹி தஸ்ய ஸ்துதிம் கிருதவான் இத்யர்த்தஹ. சோ பதித்வா, சோ ஃபாலிங் ஆன் த கிரவுண்ட் லைக் அ ஸ்டிக், ஹி பிரேஸ்ட் ஆர் ஹி வர்ஷிப்ட் ராம இத்யர்த்தஹ. சோ யூ ஹாவ் பதித்வா, பத்து பதித்வா. த்ரீன் க்ரமான் அத பிக்ஷித்வா பிரதிக்ரஹ்ய ச மானதஹ ஆக்ரம்ய லோகான் லோகாத்மா சர்வபூத ஹிதே ரபஹ. வாமனாவதாரஸ்ய இதம் வர்ணனம். த்ரீன் க்ரமான் பிக்ஷித்வா, சோ பெக்கிங் ஃபார் த்ரீ ஃபீட், க்ரம பாத பத இத்யர்த்தஹ. த்ரீணி பதானி கில வாமனேன யாச்சிதானி, வாமனஹ பலிம் த்ரீணி பதானி யாச்சிதவான். அதஹ த்ரீன் க்ரமான் பிக்ஷித்வா, சோ பிக்ஷதே இஸ் டு பெக் ஃபார், யாச்சதே இத்யர்த்தஹ. பிக்ஷித்வா பிரதிக்ருஹ்ய ஸ்வீகிருத்ய, டேக்கிங் இட் மானதஹ, இட் இஸ் அன் அவிசேஷன டு விஷ்ணு, த ஒன் ஹூ மேக்ஸ் கிவ்ஸ் ரெஸ்பெக்ட் டு எவ்ரிபடி. சோ ஆர் அ டிஃபரெண்ட் மானா கேன் ஆல்சோ மீன் அ மெஷர்மெண்ட், சோ ஹீ ஹூ மெஷர்ஸ் த த்ரீ வேர்ல்ட்ஸ் இத்யர்த்தேபி பவித்தும் அர்ஹதி. ஆக்ரம்ய லோகான், சோ ஆக்யுபையிங் ஆல் த வேர்ல்ட்ஸ், லோகாத்மா, சோ ஹீ ஹூ இஸ் த சோல் ஆஃப் திஸ் வேர்ல்ட், சர்வபூத ஹிதே ரதஹ, சோ ஹீ வாஸ் எங்கேஜ்ட் இன் வாட் வாஸ் குட் ஃபார் ஆல் பீயிங்ஸ். சோ பிக்ஷித்வா பிரதிக்ருஹ்ய ஆக்ரம்ய, சோ க்த்வா பிரத்யயஹ யதா உபசர்கஹ பவதி தடா லியப் பவதி. சோ கிரஹீத்வா பிரதிக்ருஹ்ய, க்ராந்த்வா ஆக்ரம்ய. ஓகே, சோ த பிளெயின் தாது வில் கெட் க்த்வா இன் த சேம் கான்டெக்ஸ்ட், அண்ட் இஃப் தேர் இஸ் அன் உபசர்க தேர் வில் பி லியப். ஓகே, சோ ஃப்ரம் நெக்ஸ்ட், இன் த நெக்ஸ்ட் கிளாஸ் வி வில் சி லியப். சோ பட் இஃப் யூ சி யூஸ்வலி க்த்வா அண்ட் லியப் வில் கம் டுகெதர் பிகாஸ் த கான்டெக்ஸ்ட் இஸ் த சேம். So it just depends on what is the dhatu, whether we are adding a upasarga or not. So bhikshitva, bhikshadhatoho, bhikshitva iti rupam. So all these are set dhatus. Evam eva nich pratyayantaha sarvepi set, setaha eva bhavanti. So all dhatus which are nijantas. So nijantaha द्विविधाः दशमगणे ये धातवः सन्ति ते स्वार्थनिजन्ताः सो दे गेट् निच् इन् द सेम् मीनिङ्ग् आफ् द धातु सो द निच् डस् नाट् चेञ्ज् द मीनिङ्ग् सो चोरयति चोरयित्वा कथयति कथयित्वा ताडयति ताडयित्वा गणयति गणयित्वा तोलयति तोलयित्वा सो सर्वे सेटः सो रूपं तिङन्तेन समानं भवति सो वाट् एवर् यु हाव् द चोर् यु हाव् चोर् ताड् यु हाव् ताड् यत्र दीर्घः तत्र दीर्घः यत्र धातोः तुल धातुः सो तोलयति तोलयित्वा चोरयति चोरयित्वा सो जस्ट् गोयिङ्ग् बै द निजन्त फार्म् यु केन् ईज़िलि गेस् द क्त्वान्त ओके सो दीस् आर् स्वार्थ निजन्ताः ओके चुर् इति धातोः यः अर्थः तदेव निजन्तस्यापि अर्थः ओके सो दिस् इस् ओन्ली फार् धातुस् विच् बिलाङ्ग् टु द टेन्त् गण आन् द अदर् हेण्ड् वी हेव् द प्रेरणार्थक निच् फार् आल् धातुस् वाट् वी काल् द कासल् निच् सो प्रेरयति वेन् यु मेक् सम्बडी एल्स् डू द एक्शन् वि काल् इट् अस् प्रेरण सो तस्मिन् अर्थे अपि निच् भवति पाठयति सो वि हाव् पठति पाठयति देर् इस् अ डिफ्रेन्स् पठति इस् टु रीड् वन् सेल्फ् वेर् एस् पाठयति इस् टु मेक् सम्बडी एल्स् रीड् टु कास् सम्बडी टु रीड् सो दट् इस् आल्सो निच् सो तत्रापि रूपं समानं भवति पाठयित्वा सो बोधयति बुध्यते हि अण्डर्स्टाण्ड्स् बोधयति टु मेक् सम्बडी अण्डर्स्टाण्ड् टु कास् देम् टु अण्डर्स्टाण्ड् सो तत्र बोधयित्वा मारयति मारयित्वा चालयति चालयित्वा कारयति कारयित्वा सो दीस् आर् वाट् वी काल् द प्रेरण यु विल् हेव् एन् ओरिजिनल् धातु पठति पाठयति बुध्यते बोधयति म्रियते मारयति सो टु डै अण्ड् टु किल् चलति चालयति टु मूव् अण्ड् टु ड्रैव् टु मेक् संथिङ्ग् मूव् सो करोति कारयति सो दीस् आर् काल्ड् द प्रेरणार्थक णिच् सो तत्रापि इट् भवति रूपं समानं भवति सो द नार्मल् सेट् धातु अण्ड् दीस् निजन्तास् विल् आल् हेव् सिमिलर् फार्म्स् सो नव्यपत्रपसे नीच कर्मणानेन रावण ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे सो सीता रावणं प्रति वदति नीच रावण सो अधम इत्यर्थः अनेन कर्मणा न व्यपत्रपसे अपत्रपा नाम लज्जा न लज्जसे सो यु आर् यु नाट् अशेम्ड् आफ् दिस् डीड् किं माम् विरहितां ज्ञात्वा नोयिङ्ग् दट् ऐ एम् अलोन् दट् इस् विथौट् मै हस्बेण्ड् अण्ड् लक्ष्मण सो नोयिङ्ग् मी टु बी अलोन् चोरयित्वा सो स्टीलिङ्ग् किड्नापिङ्ग् पलायसे यु आर् रन्निङ्ग् अवे सो ज्ञात्वा चोरयित्वा पलायसे सो ज्ञा धातोः ज्ञात्वा चुर् धातोः चोरयित्वा सो पलायसे यु आर् रन्निङ्ग् अवे नोयिङ्ग् दट् ऐ एम् अलोन् दट् इस् यु डु नाट् हेव् द करेज् टु फैट् वित् मै हस्बेण्ड् इत्यर्थः सो ज्ञात्वा चोरयित्वा पलायसे परोपकृति कैवल्ये तोलयित्वा जनार्दनः गुर्वीम् उपकृतिं मत्वा ह्यवतारान् दश अग्रहीत् जनार्दनः नाम विष्णुः तोलयित्वा तोलयति इस् टु वेय् अगेन्स्ट् ईच् अदर् टु बेलेन्स् सो ही वेड् वाट् परोपकृति कैवल्ये परोपकृतिः परेषाम् उपकारः सो हेल्पिङ्ग् एल् अदर्स् आर् कैवल्य केवलस्य भावः कैवल्यम् सो कैवल्यं मोक्षः इति सो इन् दिस् केस् इट् इस् यु नो बीङ्ग् एस्टाब्लिश्ड् इन् द सेल्फ् लैक् विष्णु इफ् ही इस् डूयिङ्ग् द योग निद्रा सो ही इस् एस्टाब्लिश्ड् इन् हिम्सेल्फ् ही डस् नाट् नीड् टु डू एनिथिङ्ग् फार् हिम्सेल्फ् ओके ही इस् केवल कैवल्ये निरतः आन् द अदर् हेण्ड् देर् इस् परोपकृति So he weighed between them, which is better? Is it better to be to myself, which is fine for him, or should I help the others? Paropakriti kaivalye tolayitva gurvim upakritim matva. Matva. So matva manu matva. Right? We saw in the anit manyate to think or to consider, considering that upakritihi. So helping others is gurvi. Gurvi is heavier. Okay? Is more important. So, gurvim upakritim matva hi avataran dasha agrahit. So, he took the 10 avataras. Why? Not for himself. It is for the world, for the welfare of the world. So, he could have been happily established in himself. Nothing affects him. So, whatever the demons are doing on the earth or in Swarga does not affect him. So, he could have been happily in Kaivalya. But having weighed the Paropakriti and Kaivalya, he decided that Paropakriti was heavier. It was more important. And therefore, he took the 10 avataras. Okay? Iti kashchit shlokaha. So, Paropakriti Kaivalye tolayitva upakritim gurvim matva. So, guruhu gurvi. So, gurvi in the sense of heavier. Okay, so when you are weighing in a balance, you are checking what is more weighty or what is heavier. So in this case, upakriti was heavier. So one's own ananda, so atmananda is not as important as helping others. So gurvim upakritim matvahi avataran dasha agrahit. So he took the 10 avataras for lokopakara. That is the intent of the shloka. So you have tolayitva, tolayati, iti nijantam, so it is set, whereas manudhatu is anit, and you have the nakara lopa, matva. Okay. So, abhyasaha, riktasthanam puraniyam, so tatra dhatu dvayam, samanarthakam dhatu dvayam bhavati, kim rupam bhavati, iti vaktavyam. Okay. So anybody who has not tried so far wants to try? Kumar Shankar Mahalaya.
Archakaha Bhagavantam Pushpaihi Archayitva Tushyati.
Architva. Archati Architva. No problem. The next one, Pujayati.
Pujitva.
No, Pujayati. So, it is a nijanta.
Pujayitva.
Pujayitva. So, Architva, Pujayitva. So, Archati becomes Architva, Pujayati, Pujayitva. Archakaha Bhagavantam Pushpaihi Architva Tushyati. So he worships the Lord with flowers and is delighted. Or Pujayitva Tushyati. Samyak. Dhanyavadaha. Malakondaya Mahonaya.
Namaste.
Balaha Bahukalam Kriditva Graham Nirvartante.
Nirvartante.
Balaha Bahukalam Khel. Gruham nirvartante.
Nivartante. Kriditva khelitva. Samanaha arthaha. The meaning is the same. So having played for a long time, they return home. Nivartante. So just a moment, I'll be back. Okay. So the next one, Himanshu Mahodaya.
Pita mahi kathaha uktva pautrim shayayati. Pitamahi kathaha kathayitva pautrim shayayati.
Sammek. So shayayati is also nijanta, makes her sleep. So shete is to sleep, shayayati to make her sleep. Okay. Kathaha uktva vach dhatoho, dhatoho anit samprasaranam bhavati uktva kathayati kathayitva. Dhanyavadaha. So having, telling stories, she tells stories and makes the granddaughter sleep. Ityarthaha. So Meenakshi Mahodaya.
Namaste.
Ah.
Yathecham annam khaditva triptaha. Annam bhakshayitva triptaha.
Ah. Annam khaditva annam bhakshayitva. So khadati khaditva bhakshayati bhakshayitva. Okay. Oh, dhanyavada. Huh? Anybody else wants to try? Maithili.
Shishupalah Krishnam Ninditva Gataha. Shishupalah Krishnam Bhartsayitva Gataha.
Nindati Bhartsayati. So both of them is to scold or to condemn. So Krishnam Ninditva Gataha. So he condemned Krishna and went. Ityarthaha. Yes. Ninditva Bhartsayitva. Okay. So that is it. So Atra Kaschit Prashna Hasti. Ustataha Kechana Prashna Hasanti. Tishthati Ityasya Nijantarupam kim, kthvantam kim iti, tishthati stha dhatuhu, sthapayati iti nijantam, sthapayitva iti tasya kthvantam, kevalasya dhatuhu tu, sthitva iti kthvantam bhavati. So, now coming to the set dhatus, set dhatu, anit dhatushu drishtam kthva pratyayaha kit, ataha guna nishedhaha bhavati, gunaha na bhavati. Iti, kintu yadi dhatuhu set, tarhi guna nishedhaha nasti, gunaha bhavati. Anit dhatu naam gunaha na bhavati, set dhatu naam bhavati. Ataha shi, she, shayitva. So anit dhatuhu ched nitva, kritva, jitva, ityevarupam. Atratu gunaha bhavati shayitva, di dayitva, jagri jagaritva. So rukarasya ar, ikarasya e ay. Okay. So guna nishedhaha na bhavati. So nrut upadhayam rukarahasti nartitva, vridh vardhitva, vrit vartitva. So you have the guna. Set dhatushu pamanyataha guna nishedhaha na bhavati. So there is no prevention of guna. Even though the dhatu, the pratyaya is kit. Okay, so a kit pratyaya normally you will not have guna. But vishesha sutra masti ityataha yadi dhatuhu set tarhi gunaha bhavati. Okay. Ajinottara samstirne varastarana sanchaye shayitva purushavyagraha katham shete mahitale. पुरुषव्याघ्रः रामस्य विषये उच्यते. यदा रामः वनं गच्छति तत्र गुहस्य ग्रामे सः अधः स्वपिति, तदा गुहेन पृच्छ्यते कथं शेते महीतले. सो हौ केन् ही स्लीप् आन् द बेर् ग्रौण्ड्, हौ वाज़् ही स्लीपिङ्ग् अर्लियर्. अजिनोत्तर संस्तीर्णे वरास्तरण संचये. सो अजिनोत्तर संस्तीर्णे, सो द फ्लोर् वाज़् स्प्रेड् वित् very valuable ajina. Ajina is the skin, okay, so the deer skin or the tiger skin and so on. On it varastarana sanchaye, so extremely good spreads, soft spreads. Astarana is that which is spread, a bed spread. So varastarana sanchaya, and not one spread, so layers of very soft and very valuable spreads. Tatra shayitva, so having slept on such soft and smooth bedding, purusha vyagraha ramaha katham mahitale shete, how can he sleep now on a bare ground ityasaha. So shayitva, so purvam tatra shayitva idani matra katham shete iti dhatuhu samanaha. She becomes shete, shayitva गुणः भवति. अपि च एतत्तु सामान्यतः यदि इकारः उकारः वा उपधायाम् अस्ति धातुः हलन्तः. सो इफ् द ई आर् उ इस् द पेनल्टिमेट् लेटर् देन् विकल्पेन गुणः भवति. सो लिख् लिखित्वा लेखित्वा, बोथ् आफ् देम् आर् करेक्ट्. So mil, militva, melitva. Klish, klishitva, kleshitva. So ikarasya, ekaraha api bhavati, ikaraha api bhavati. So kup, kupitva, kopitva. Mud, muditva, moditva. Push, pushitva, poshitva. सो यदि इकारः उकारो वा उपधायाम् अस्ति तर्हि विकल्पेन गुणः भवति. अन्येषां सेट् धातूनां नित्यं गुणः भवति. सो इफ् इट् इस् ई आर् उ इन् द उपधा वि विल् हाव् आप्शनल् फार्म्स् वन् वित् गुण. सो द ए आर् ओ इस् वित् गुण, वेर् एस् द अदर् वन् इस् विथौट् द गुण. सो इट् इस् पासिबल् फार् अदर् सेट् धातूस् वि विल् हाव् गुण. अनित् धातुषु गुणः न भवति. सो अभ्यासः क्त्वान्तरूपम् उपयुज्य स्वीयं वाक्यं रचयत. सो यु केन् क्रियेट् एनी सेण्टेन्स् आफ् युर् ओन् यूसिङ्ग् द क्त्वान्त. सो सम् आफ् देम् आर् सेट् एण्ड् सम् आफ् देम् आर् अनित्. सो ऐ हेव् इण्डिकेटेड् रैट् अवे वेदर् इट् इस् सेट् आर् अनित्. सो सम्बडि आस्क्ड् अगेन् अ क्वश्चन्. So how do we identify it as set or anit? You can identify only by looking at the dhatu patha or through experience. Okay, that is, I mean, you know the samskara that okay, this is right or this is wrong. Okay. So only that way. So that is through practice. If you keep repeatedly engaging with the language, speaking, listening and reading, then you will know instinctively what forms are correct. At least for the common dhatus, you know. So for the rarer ones, you always have the reference works. Okay. So one of the purposes of this class is to familiarize with the forms. I mean, even if you don't understand all the rules, even if you don't remember the rules, having heard the forms, it will stay. Okay. And it will come back when you use it. With some practice, of course, not just by listening once. If you keep doing the exercises and doing all the practice and the drills, definitely it will happen. So by the end of the Kridanta course, you will be familiar with the forms for most of the dhatus. So with that and then with the help of reference books, you should be able to manage. So, there are two more questions here. These forms can always be interchanged. As in, you can either say likhitva or lekhitva. Yes, There is no difference in meaning. You can always use either of them. Either of them. So there is no difference. Okay? Then, weight dhatu naam gunaha bhavati va. So if a dhatu is weight, so when it has it, it will have guna. When it does not have it, it will not have guna. So it pakshe gunaha bhavati. Ida bhave gunaha na bhavati. So idanim ayam abhyasaha. So you can tell any sentence. You know how to use kutva. So any sentence will do. Sudha Magini.
Namaste.
Ah.
Mata shakan chitva pachati.
Ha, mata shakan chitva pachati. So she cuts the vegetables and cooks. Samyak. Dhanyavadaha. So takshakaha vriksham chitva dvaram nirmati. So a carpenter, so he cuts the tree and makes a door. Chitva, chidadhatuhu, chitva. So agre likh dhatuhu. Nandakumar.
Likh.
Balena
Balaha Patre Likitva Madaram Sevi.
Balakaha Patram Likitva or Patre Likitva. So it depends on he is writing something in the letter or he writes a letter. Both of them are correct. Likitva or Lekitva Preshayati. So Lekakaha Katham Likitva Athava Lekitva Preshayati. Samyak. Anybody who has not tried so far? Why so less people volunteering? So Rajalakshmi. You have to unmute yourself.
बालकाः भोजनं भुक्त्वा क्रीडितुं गच्छन्ति.
हा भोजनं भुक्त्वा क्रीडितुं गच्छन्ति. सो भुज धातुः अनित् सो इट बिकम्स भुक्त्वा. सो देयर इज नो गुणा एज यू कैन सी इवन दो देयर इज उकार देयर इज नो गुणा भुक्त्वा इत्येव रूपम्. सो सः भुक्त्वा कार्यालयं गच्छति. सो ही ईट्स एंड देन गोस टू द ऑफिस. Mush dhatuhu. Mushat mushnati is to steal. Chorayati ityarthaha. Girija.
Mush. Mukshitva.
You'll have two forms. Like likha. Two forms. Mukshitva. Moshitva.
Mush. आभरणं मोषित्वा गृहं गच्छति.
सम्यक्. So my sentence is very similar. Choraha avaranani mushitva athava moshitva palayitavan. So he ran away after stealing the ornaments. Dhanyavada. So next, vap dhatuhu. Anit. Vapati is to sow. Right? To sow seeds. Himanshu.
Oh, you got me there. Vap. Vap.
Samprasaranam.
Yeah. Samprasaranam. Uptva?
Correct. Uptva.
Okay. Uptva, uptva, uptva. Saha bijam uptva? Phalam khadayati.
Khadati.
Khadati. Khadati. Saha bijam
uptva?
Phalam khadati.
Phalam khadati. So he sows seeds and then he enjoys the fruits. कृषकः बीजानि उक्त्वा धान्यं प्राप्नोति. सो हि गेट्स् द ग्रेन्स्. हविङ्ग् सोन् द सीड्स् हि गेट्स् द ग्रेन्स्. धन्यवादाः. पद्मनाभन् महोदय.
धनं गृहीत्वा गृहं प्रति निवर्तते.
धनं गृहीत्वा, सो टेकिङ्ग् आर् होल्डिङ्ग् द मनी, हि कम्स् बेक् होम्. धनं गृहीत्वा, सो टेकिङ्ग् द मनी हि कम्स् होम्. सम्यक्. गृहीत्वा, सो गृहधातुः गृहधातोः अपि सम्प्रसारणं भवति. गृहीत्वा, अहं रात्रौ दीपं गृहीत्वा बहिः गच्छामि. सो ऐ होल्ड् अ लेम्प् एण्ड् गो औट्. गृहीत्वा इति रूपम्. सम्यक्. So another thing to remember, the set dhatus which are ukaranta or rakaranta, they become anit only for ktva. Okay, like you have the bhu dhatu which is usually set. Okay, so bhavitum, bhavitavyam, etc. But for ktva it will not get it. So ukarantanam ऋकारान्तानां धातूनाम् इडागमः न भवति. इवन् इफ् द धातु इस् सेट् वी विल् नाट् हाव् इडागम. सो यु हेव् नु नुत्वा, भू भूत्वा, पू पूत्वा, वृ वृत्वा. सो आल् दीस् आर् सेट् धातुस्. ओके, सो बट् यु विल् नाट् गेट् इट् फार् द क्त्वा. सिमिलर्ली तृ, ओके, तृ धातुः तीर्त्वा इति भवति. सो देर् इस् नो इट्, देर् इस् आल्सो अ स्पेशल् कार्य. सो यु गेट् तीर्त्वा. गृ गीर्त्वा, कृ कीर्त्वा. सो किरति इस् टु स्प्रेड्, गिरति इस् टु स्वालो, गिलति गरति एट्सेट्रा. सो यु हाव् तरति इस् टु स्विम् आर् टु क्रास्. So there you have, you don't have it and some special forms like teertva, geertva, keertva. So also the shri dhatu. Okay, so shri dhatu, it is a set dhatu but it becomes anit for ktva. Okay, so shri shritva, so taking refuge in. Krishnam shritva, bhagavantam shritva ityadi. Okay, so the sutra itself is shrukaha. So shri dhatu and the ukaranta rakaranta dhatus. So even though they are set, they will not get it for ktva. Okay, so etadapi smartavyam. Aham vaishvanaro bhutva praninam deham ashritah pranapana samayuktah pachamyannam chaturvidham iti shri krishnah भगवद्गीतायां कथयति. अहं वैश्वानरः भूत्वा, सो ऐ बिकम् द फयर्. वैश्वानरः फयर्, द डैजेस्टिव् फयर्. प्राणिनां देहम् आश्रितः, सो बीङ्ग् प्रेसेण्ट् इन् द बाडीस् आफ् द आल् प्राणीस्. प्राणापान समायुक्तः, so joining, the digestive fire joins with the breath, the prana and the apana. And pachami annam chaturvidham, so all the four kinds of anna, food. So bhakshya, bhojya, lehya, choshya, we say there are four kinds of food. So chaturvidham annam pachami, pachami, so I help it to digest ityartha. So bhutva, vaishvanaraha bhutva, we will not have bhavitva, it will be bhutva. Esha dasharathi ramah sugriva sahito bali samudram samalah teertva moolam nah parikrantati. So esha dasharathi ramah, so this rama, so Sugriva Sahitaha, along with Sugriva, Bali, so he is very powerful. Sabalaha Samudram Tirtva, so crossing the ocean along with his army. Sabalaha, Nama Balena Senaya Saha Ityarthaha. Sabalaha Samudram Tirtva, so having crossed the ocean along with his army. Naha Moolam Parikruntati, Naha Asmakam Moolam, so our base or our roots, he cuts away our roots. So Kashchid Asuraha Indrajit, I don't remember who tells this. This is not Valmiki Ramayana, this is I think Adhyatma Ramayana. So Indrajit, somebody tells this. So Naha Moolam Asmakam Moolam Kartayati Ityarthaha, so he cuts our roots. So Tirtva, having crossed Tridhatuhu Tirtva Iti Rupam. Atha Devaishcha Minubhihi Vishnor Lokam Aham Gataha Natva Nutvacha Vividhaihi Stavaihi Dukham Nyavedayam. So, Atha then Devaihi Munibhihi, so along with the gods and along with the sages, Vishnohu Lokam Gataha, so going to the Vishnu Loka, Natva Nutva, so Namati Nam Dhatuhu, the Anunasika is lost, so you have Natva, Nu Dhatuhu, Nutva, so Natva having bowed down, Nutva having praised, Nu Stutau, so Vividhaihi Stavaihi Nutva, so praising him with different stotras, Dukham Nyavedayam, I told him of my troubles or of my sorrows, Ityarthaha, so you have Nutva, Nu Dhatuhu. So, Natva, Nutva. Okay. So, Hinanim Abhyasaha, Samuchitam Rupam Chinuta. Select the correct form of Ktva. Okay. So, among the choices, you'll have three choices. You have to select, choose which is the correct form. Okay. Venkateshwaran Mahalaya, you have muted yourself.
Ni
is Nitva. So there is no guna. So you get Nitva. She
Shetva.
No. It is Set. So you have the Ikara.
Ikara. Shaitva.
Samyakshi Shaitva. So it is a set dhatu because of which it also gets guna. So we have Shaitva. So Nitva Shaitva. Shri Ram Mahalaya.
Chi Chitva.
Chitva. So Chi dhatu anit Chitva. Iti rupam gunahanasti.
Kri Krayitva.
No, Anitta. Krinati is Kretum. Oh. Anitta.
Kretva.
No. Here there is no guna. Kritva. So if you have Tumun, it gets guna. So you have Kretum, Chetum, Netum, etc. Parktva, there is no guna. Kritva.
Dhanyavada.
Rajalakshmi.
Dayitva.
D Dayitva. So D is also set.
Jitva.
G Jitva. So Nitva, Shaitva, Chitva, Kritva, Dayitva, Jitva. So she and D are set. The rest are all anit. Okay. Mahadevan.
Stutva.
So stu dhatuho anit stutva.
Nutva.
Nutva. We saw just now it is actually a set dhatu, but it will not have it for ktva.
Bhutva.
Bhutva. So stutva, nutva, bhutva. So all ukaranta dhatus, they are anit, there is no guna. So you just have to join the dhatu to the tva. Okay. So Girija.
Vritva.
Vritva.
Kritva.
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 No. Kr is kritva. So if you have kr, it will be kritva. Kr is kritva.
Anyone.
Tr, tirtva. So tr is tirtva. Similarly, kr would be kirtva. But kr is kritva. Dhanyavada. Okay. So these are the forms. So there are several dhatus which have optional forms. That is the vet. So you get it optionally. So ish would be eshitva, ishtva. So if you have it, you have the guna. So eshitva. So if it is anit, there is no guna. Ishtva. So kamu. Kamitva, kantva. Bhram becomes bhramitva, bhrantva. So sah is sahitva, sodhva. Khan, khanitva, khatva. Div, devitva, dyutva. So as you can see, there are different forms. Whatever we have seen for ktva, so I'll give with the disclaimer. They are very, very, it's a very, basic understanding of ktva. We have not done ktva in the same detail as we did the other pratyayas because ktva has many, many special rules. Okay. So, we'll see visheshamshaha. So, I'll do this first and then come back to the sutras. Visheshaha amshaha. Gunaha bhavati athava na bhavati. That itself is a big thing in ktva. So, as I said, what I have told so far, it does not cover 100%. It is only 80%. There are still special dhatus. Say, for example, rudh dhatu. You will not have ruditva, roditva. It will be only ruditva. Okay. So, there are many sutras which specifically mention specific dhatus and say, okay, there is a different behavior. Okay. So, the normal behavior is anit dhatu nam gunaha na bhavati. Set dhatu nam gunaha bhavati. So, e u upadhanam, if it is ralanta, ralanta is almost like halanta. Okay, so ending in a hal other than yava. Okay, so if it is ikara or ukada, ukara in the upadha, you get vikalpena bhavati. So, this is the general rule. So, there is no guna for anit dhatus, there is guna for set dhatus. Among set dhatus, if there is ikara or ukara in the upadha, then you have optional guna. So, that is the general rule. But, keshanchana dhatunam vishishya vidhanam asti. So, there are dhatus, some as in several dhatus, which have specific rules for guna. Okay, there should not have been guna, you get guna. There should have been guna, you don't get guna. So, those we will have to know only through a either referring to a book such as the Kridanta Rupamala or by studying the sutras in full. Okay? Because there are almost 50 sutras which are concerned only with the forms in Ktva. What happens with these dhatus, what happens in specific situations and so on. So, it is not possible to cover all of them in this class. It is beyond the scope and it is like, I mean, too much of rules if I have to tell it for each different dhatu. Okay. So, I have told only the general rules for the dhatus. So, there are exceptions. So, always keep in mind that there are exceptions. So, through more practice, as you keep coming across forms, you will know them. Or as you keep studying more of Vyakarana. Okay. So, maybe we will do a class sometime where we look at it in detail. What are all the different sutras? So, it is only through sutras that you can remember finally. I mean, you know, okay, five sutras. Then you will know, okay, this is all that is. So, rather remembering it differently for each dhatu is more difficult. So, similarly, it bhavati, na bhavati, tatra api visheshaha santi. Okay. So there are, you know, the changes of it behavior. As we saw, some of the set dhatus will not get it, whereas some of the anit dhatus will get it. Like we saw the vasu dhatu. So it is actually anit, vastum, ityadi, but you get it, ushitva. So there is it. Whereas some set dhatus like bhu dhatu, it will not get it. And there are some which get an optional it and so on. Okay. So both in guna and in it, the ktva is a sort of irregular pratyaya. You know, we talk of dhatus which are regular dhatus and irregular dhatus. So regular dhatus have a very, very familiar, the correct forms, whereas irregular dhatus, they have special forms. Similarly, the pratyayas which we saw so far, all the six pratyayas which we saw before ktva, they are all mostly regular pratyayas. Okay, so you know these rules, it's all easy, so most of the dhatus will come under it, but ktva is an irregular pratyaya. Okay, so for many dhatus, there are deviant forms, so the only real way to be sure of whether the form is correct is to have those references. Okay, so in our materials, you can download the Kridanta Rupamala, right? So it is 5 volumes. So it will give in detail the Kridanta forms of all dhatu. So it's a very useful reference. Or you can also buy the Kridanta Rupanandini by Janardhan Hegde, published by Samskrita Bharati. So that is a single volume. There again, you will definitely get the forms of ktva. All these general pratyayas you will get. So having them is definitely useful, and beyond a level it is required, because unless we study through the sutras, it is not possible to address all aspects of such pratyayas. Okay, so if there are regular pratyayas, you can put them into some rules. So what we have covered is only about 80% of ktva for the dhatus which we have studied. So for the rest, there are some deviations. Okay. So coming back to the earlier one, the sutras with regard to ktva, again I will not go into all sutras. So the main sutra is samana kartrukayoho purvakale, right? So two essential conditions for ktva. Okay. Samana kartrukayoho. So the same karta should be performing the two things. Purvakale, and for the earlier action we get ktva. Okay. So that is the common usage of ktva. So there is also some special usages. Abhikshnye namulcha iti sutram asti. Abhikshnyam. Abhikshnyam nama punah punah karanam. So doing something again and again. So in that case, we have ktva and we also have another suffix called namul. Okay, these are very nice usages. Drishtva, drishtva. So seeing again and again and again. So it does not mean purvakala. So it means like seeing again and again. So he is bored of seeing it again and again. Drishtva, drishtva, jamita. Okay. So such similar usages are found even in regional languages. You also have a different suffix called darsham, darsham, which is namul. Okay. Which means the same. Darsham, darsham, na tripyati. Say, for example, Sanjaya, seeing his Vishrupa again and again, I do not find satisfaction. So in that case, you can use both ktva as drishtva, drishtva, or darsham, darsham. So the repetition of the word indicates the repetition of action also. Similarly, kritva, kritva, karam, karam. So doing it again and again. Okay. Shravam, shravam. Shrutva, shrutva. So hearing again and again. So in such contexts also, we use ktva. Okay. So sutra is abhikshnye namulcha. There is also alam khalvohu pratishedhayohu pracham ktva. When we use the word alam, that is enough, pratishedha, so you are saying stop doing it, then with alam we use ktva. So alam bhuktva means stop eating, enough of eating. Okay. So it is again not purvakala. It is not bhuktva alam. So having eaten enough. It means stop eating. Pratishedha. So alam ruditva. Stop crying. So with alam in the sense of that pratishedha. So preventing something also we use ktva. Okay? So alam kim. Anything you can say. Alam gatva. So enough of going there again and again. Whatever. Okay? So with alam. In the sense of pratishedha also, we can use ktva. So, these are the three main cases of usage of ktva. Ktva is given by several sutras. So, from 3418 to 3424. Okay. So, all these three come under that. So, you have six sutras. And again, from 59 to 64, we have six. So, 7 plus 6. So, there are about 13 sutras which give the pratyaya ktva. Okay, in several rare cases. So, the common cases are these. So, in addition to these, for ktva, we will have to know the sutras which deal with guna and the sutras which deal with idagama. Okay, so that will be sometime later. So, for now, it is enough if we know the general usage of ktva, where do we use it, and the forms of the common dhatus. Okay, so we saw both anit and set. Anit dhatushu gunaha na bhavati, keshanchita samprasaranam bhavati, hal sandhihi bhavati. So those are the things to remember for anit dhatu. Set dhatushu keshanchana dhatunam it na bhavati. So ukarantanam rakarantanam it na bhavati. Gunaha bhavati. Ikara upadha, ukaraha ukarova upadhayam asti chet vikalpena bhavati. So, those are the general rules for set. So, in addition, there are certain special things. Okay. So, with this, we come to the end of the ktva pratyaya. So, in the next class, we will see the lyap. Okay. So, the context is the same. So, purva kale, wherever there is an upasarga, we have lyap. So, we will see that in the next class. Any questions? Okay. Ekaha prashnaha, tumun also has the samana karta condition. See, tumun is only uddeshya. Okay. Yes, I mean, he doing. He wants to do. The same person, the icha is in the same person who is doing one action. Because the other action has not happened yet, so it is not karta. But the uddeshya is the same person. Yes. So, gantum, patitum gachati. So, for him to read. Yes. So, it does not have this one. So, tumul nulau kriyayam kriyarthayam. So, it's only one kriya which is being performed for the purpose of another kriya. Since the another kriya has not happened, there is no karta directly, but it is, yes. So, bhuj bhunj dvayam api samanam va iti ekaha prashnaha. Bhuj iti dhatuhu. So, you have the bhunkte ityadishu shruyate. So, that is because of the vikarana. The dhatu is bhuj. Bhunakti and bhunkte are the forms in Tinganta. So, there is a question. Mahadevan. Yeah, what was your question?
Sir.
You mentioned that all given the pratyaya have different forms because the it vartavarna happens to be prakara. That sort of rule applies also where it is ante vartu there.
Yes, they should with whatever any two components which have the same it letter will behave similarly to whatever is governed by that. For example, for tit, there are not many usages. The tit usually governs only the swara, which is the swarita swara. So if you have tavyat and any other thing which has takara as it, yes, they will behave similarly to whatever is governed by that it.
Okay.
Any particles which have the same it letter will have something in similar. That is the whole idea behind having the it letter. Okay, so even though we don't directly see it in the form, you have to bring them into the same class, right, to for some behavior. So for that, he has used those invisible markers. So any particles, similar particles, any two pratyayas which have the same it letter will behave similarly to some extent, as in whatever is governed by that. There is a question, how are these behaviors determined? What is the basis? I assume you are asking about the different things. See, it is all prayoga. Basically, what is the usage? And above the prayoga, we have the sutra. So, there are sutras which codify the usage. Okay, this is how it is. So, sutra is just a way of understanding the prayoga. So, if the prayogas happen to be regular, you will have lesser sutras. If the prayogas are variant, see, the thing is, the more something is used, for example, ktva is a very, very familiar or very popular pratyaya. So, there are naturally many variations with the dhatus. So, for that, the sutras will also be more. That's it. And, yes, it's a different kind of a pratyaya. Is the Kridanta Rupamala downloadable at our site? As in, there are links. I have given the links to that, the downloads in our site. It is in archive.org, I think. That is where it is available. The links are available from our course page. So, we will stop here. I will upload the materials, both this class and the previous class. Along with the exercises for Ktva, I'll upload by Monday or Tuesday. So, after that, you'll be able to download. So, I repeat. So, those who are in Chennai, please do make it to our event next Saturday. You'll get a mail with the details. And, So, please do go through our websites and have a look at our new products. Dhanyavadaha. Gururewa gatir gurumewa bhaje gurunaiva sahasminamo gurave. Na guroh paramam shishurasmi gurur matirasti gurau mama pahi guru.